अस्य श्रीरवाक्षरी महामन्त्रस्य ब्रह्मविष्णुरुद्रऋषयः गायत्रीष्णिदनुष्टुभच्छन्दांसि श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः ऐं बीजम् क्लीं शक्तिः क्लीं कीलकम् श्रीमहाकाली महालक्ष्मी महासरस्वती प्रीत्यर्थे जपे विनियोगः ॐ ऐं अङ्गुष्ठाभ्यां नमः ॐ क्लीं तर्जनेभ्यां नमः ॐ क्लीं मध्यमाभ्यां नमः ॐ चामुण्डायै अनामिकाभ्यां नमः ॐ विच्चे कनिष्ठिकाभ्यां नमः ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः ॐ ऐं हृदयाय नमः ॐ ह्रीं शिरसे स्वाहा ॐ क्लीं शिखायै वषट् ॐ चामुण्डायै कवचाय हुम् ॐ विच्चे नेत्रत्रयाय पौषट् ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् भूर्भुवस्वरो मिति दिग्बन्धः ध्यानम् खड्गम् चक्रगदेषु चापपरिघान् शूलम् भुजुण्डीम् शिरः शङ्खम् सन्दधतीम् रवेस्त्रिनयनाम् सर्वाङ्गभूषावृताम् नीलाश्मद्युतिपास्य पाददशकाम् सेवे महाकालिकाम् यामस्तोस्वपिते हरौ कमलजौ हन्तुम् मधुम् कैटभम् अक्षस्रक्परशुम् गदेषु पुरुषम् पद्मम् धनुष्कुण्डिकाम् दण्डम् शक्तिमसिम् च चर्मजलजम् घण्टाम् सुराभाजनम् शूलम् वासु सुदर्शने च धृतीम् हस्तैः प्रसन्नाननाम् सेवे सैरिभमर्दिनीलिभ महालक्ष्मीम् सरोजस्थिताम् घण्टाशूलहलामि शङ्खमुसले चक्रम् धनुःसायकम् हस्ताद्रे दधतीम् घणान्तविलसक्षीताम् सुतुल्यप्रभाम् गौरीदेव समुद्भवाम् त्रिजगतामाधारभूताम् महापूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् लम् पृथिव्यात्मने गन्धम् कल्पयामि हम् आकाशात्मने पुष्पम् कल्पयामि यम् वायुवात्मने धूपम् कल्पयामि रम् अग्न्यात्मने दीपम् कल्पयामि मम अमृतात्मने अमृतम् निवेदयामि संसर्वात्मने समस्तोपचारान् समर्पयामि
अथ अष्टोत्तरशतसङ्ख्या नवाक्षरी जपम् जपित्वा